इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। अथ वार्ताः। प्रधानमन्त्री अद्य सरदार वल्लभ भाई पटेलस्य जन्मदिवसस्य राष्ट्रिय एकता दिवसोत्सवे भागं भजिष्यति। प्रधानमन्त्री एकतानगरस्य एकता प्रतिमायां सरदार वल्लभ भाई पटेलं प्रति श्रद्धाकुसुमानि अर्पयिष्यति तथा च एकता दिवस प्रतिज्ञाम् अपि प्रदास्यति। श्रीमोदी एकता दिवसस्योपलक्ष्ये पथ संचलनस्य अपि साक्षी भविष्यति। प्रधानमन्त्री नरेन्द्रमोदी गतसायं एकतानगरे 80-200 कोटि रूप्यकाणां विविध मूल्य संरचनात्मक विकास परियोजनानां उद्घाटनं शिलान्यासं च कृतवान्। प्रधानमन्त्री बोन्साई उद्यानस्य सीवेज ट्रीटमेंट संयंत्रस्य सरदार उपमण्डलीय चिकित्सालयस्य च उद्घाटनं कृतवान्। ह्यः समारब्धाः परियोजनाः पर्यटकानां अनुभवं वर्धयितुं सुलभतां प्रदातुं क्षेत्रे स्थायित्व उपक्रमानां समर्थनं कर्तुं च उद्दिश्यन्ते। गुजरातस्य द्विदिवसीय यात्रायां प्रधानमन्त्री आरम्भ 6.0 इत्यस्य 99वें सामान्य प्रतिष्ठान पाठ्यक्रमस्य अधिकारी प्रशिशून् अपि सम्बोधितवान्। अस्मिन् भारतस्य 16 लोकसेवाभ्यः 53,600 अधिकारी प्रशिशवः भूटानस्य 3 लोकसेवाभ्यः च सम्मिलिताः सन्ति। प्रधानमन्त्रिणा नरेन्द्रमोदिना उक्तं यत् बडोदरा नगरे 95,200 इत्यस्य विनिर्माणसंकुलस्य उद्घाटनं भारतस्य रक्षा वायु अन्तरिक्ष यात्रायाः महत्वपूर्णक्षणमस्ति। सामाजिक संजालीय पटले लिंक्ड इन इत्यत्र स्वस्य लेखे श्रीमोदी अवदत् यत् आधारशिलास्थापनात् परिचालनपर्यन्तं निष्पादनस्य गतिः तीव्रमासीत्, केवलं वर्षद्वये एव। झारखण्डराज्ये विधानसभा निर्वाचनस्य द्वितीयचरणस्य नामाङ्कनपत्राणां परीक्षणं गतसायं सम्पन्नम्। अस्य चरणस्य कृते 34,600 अभ्यर्थिनः नामाङ्कनं कृतवन्तः। द्वितीयचरणे नवम्बर मासस्य 20 दिनाङ्के 38 निर्वाचनक्षेत्रेषु मतदानं भविष्यति। अभ्यर्थिनः अद्य यावत् नामाङ्कनं निराकर्तुं शक्नुवन्ति। प्रथमस्य चरणस्य निर्वाचनस्य प्रत्याशि प्रत्याहार प्रक्रिया ह्यः समाप्ता। 43,700 प्रत्याशिनः स्पर्धायां सन्ति। नवम्बर मासस्य 13 दिनाङ्के प्रथमचरणस्य निर्वाचने 43 निर्वाचनक्षेत्रेषु मतदानं 23 दिनाङ्के च मतानां गणना भविष्यति। उत्तरप्रदेशे अयोध्यायां ह्यः दीपावल्याः पूर्वसन्ध्यायां भव्यदीपोत्सवः आयोजितः। राममन्दिरस्य अभिषेकसमारोहस्य अनन्तरम् अयोध्यायाम् एषः प्रथमः दीपोत्सवः अस्ति। उत्तरप्रदेशसर्वकारः ह्यः राम की पैड़ी समेत्य अयोध्यायाः 55 घाटस्थलेषु 25,00,000 दीपानि प्रज्वाल्य सप्तमं गिनीज वर्ल्ड रिकॉर्ड इत्यस्य लक्ष्यं कृतवान्। केन्द्रीय संस्कृति पर्यटन मंत्री गजेन्द्र सिंह शेखावतः, मुख्यमंत्री योगी आदित्यनाथः, अन्ये च अनेके मन्त्रिणः अस्मिन् कार्यक्रमे भागं गृहीतवन्तः। दीपावल्याः अवसरे राजस्थाने अपि विविधानां गतिविधीनां कोलाहलं प्रचलति। ह्यः सम्पूर्णे राज्ये रूपचतुर्दशी आचर्यते। भक्ताः विभिन्नेषु पवित्रस्थानेषु जलाशयेषु तडागेषु च पवित्रं निमज्जनं कृत्वा धनस्य समृद्धेः च प्रार्थनां कृतवन्तः। पारम्परिकाः रङ्गोलीमण्डलानां च अनेकेषु स्थानेषु आकर्षणस्य केन्द्राणि च सन्ति। इति वार्ताः।